नमस्सर्वेभ्यः. अद्य कोविदवर्गस्य पञ्चविंशः पाठः, जुलै मासस्य द्वादशः दिनाङ्कः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. बहुव्रीहि समासस्य अध्ययनम् अस्माभिः क्रियमाणम् अस्ति. तत्र बहुव्रीहिसमासः पञ्चविधः भवति. समानाधिकरणबहुव्रीहिः, व्यधिकरणबहुव्रीहिः, नञ् बहुव्रीहिः, सह पूर्वपदबहुव्रीहिः, उपमानपूर्वपदबहुव्रीहिः इति. तत्र समानाधिकरणबहुव्रीहिसमासः अस्माभिः दृष्टः आदौ. अन्यप्रभेदान् अद्य पश्यामः. तत्र समानाधिकरणबहुव्रीहौ प्रथमान्तं विशेषणं भवति, प्रथमान्तं विशेष्यं भवति. विशेषणविशेष्ययोः अन्यपदार्थे समासः बहुव्रीहिसमासः. पीतम् अम्बरं यस्य, सः पीताम्बरः. पीतम् अम्बरं पीताम्बरम् इति कर्मधारयसमासः भवति विशेषणस्य विशेष्येण सह. यदा तु अम्बरस्य एव प्राधान्यं तदा पीताम्बरम् इति कर्मधारयः. यदा तु अन्यस्य, यः अम्बरं धरति तस्य प्राधान्यं तदा बहुव्रीहिसमासः. कृतं भोजनं येन, सः कृतभोजनः. वीराः पुरुषाः यस्मिन्, सः वीरपुरुषः. बहुधनं यस्य, सः बहुधनः इत्येवं बहूनि उदाहरणानि दृष्टानि. गतवर्गे स्त्रीलिङ्गपदानां बहुव्रीहिसमासे कः विशेषः भवति इति ज्ञातवन्तः. संक्षेपेण वक्तव्यं चेत् पूर्वपदं पुल्लिङ्गवत् भवति. अतः कृतः, कृता इत्यस्ति चेत् कृत, रूपवती रूपवत्, सुन्दरी सुन्दर. पूर्वपदं पुल्लिङ्गवत् भवति. यदि उत्तरपदम् आकारान्तस्त्रीलिङ्गं भवति तदा ह्रस्वः भवति. अधीता विद्या येन सह, अधीतविद्यः, विद्य इति ह्रस्वः भवति. यदि ईकारान्तम् ऊकारान्तम् ऋकारान्तं वा उत्तरपदं भवति तदा क इत्यस्य योजनं क्रियते. अतः सुन्दरपत्नीकः, तीर्णनदीकः इति कप्रत्ययस्य योजनं क्रियते. एवमेव यत्र महत् शब्दः पूर्वपदं भवति कर्मधारयसमासे एवं बहुव्रीहिसमासे, तस्य आकारादेशः भवति. महा इति भवति. लिङ्गत्रये अपि महा इति भवति इति ज्ञातवन्तः. एतदाधारेण अभ्यासः आसीत्. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. उद्धृतः ओदनः यस्याः सा सीता.
उद्धृतौदना,
नमस्ते. उद्धृतौदना, सम्यक्. सो उद्धृत ओदन इत्यस्ति उद्धृतौदन वृद्धिसन्धिः. सा इत्यस्ति अतः उद्धृतौदना स्थाली. यस्याः स्थाल्याः ओदनः उद्धृतः, सा स्थाली उद्धृतौदना इति उच्यते. सर्वा प्रिया यस्य, सः
सर्वप्रियः.
सर्वप्रियः, सर्वा इति पूर्वपदस्य सर्व इति भवति. प्रिया इति आकारान्तस्य अपि ह्रस्वः. सर्वप्रियः इति समस्तं पदं. सम्यक्. अग्रे उमादेवी भगिनी. You have to unmute yourself. Tirna Nadi Yena Saha.
Saha. Tirna Tirta Nadihi. Namaste. Tirta Nadihi. Tirta.
Tirta Nasti. Tirna.
Tirna Nadi. Tirna Nadi
Ikara.
Tirna Nadi. Nadi. Tikaha.
Nadikaha.
Nadikaha.
Samyak. Tirna Nadikaha. Tirna Nadi Yena Saha. Tirna Nadikaha. Uttamam. Drishtaha Samudraha Yaya Sa.
Drishta Samudra.
Samyak. Drishta Samudra. Drishtaha Samudraha Yaya Sa. Drishta Samudra. Trai. Mahat Balam Yasyaha Sa.
Mahat Bala.
Maha Bala. Yatra Mahat Shabdahasti Tatra Akaraha Bhavati. Mahat Balam Yasyaha Sa. Maha Bala. Mik. Agre. Sujata Bhagini. Buddhimati Putri Yasya Saha. Sujata Bhagini, Nashruyate.
Buddhimat Putri Kaha.
Samyak. Buddhimat Putri Kaha. Yasya Saha. Kshamyata. Maya Tatra Tankana Dosha Hasti. Buddhimat Putri Kaha. Itteva. Yadi Yasyaha Sa Ityasti Tada Buddhimat Putri Ka. Kushala Mata Yasyaha Sa.
Kushala Matrukaha
Sa.
Kushala Kushala Mata.
No, no, Matruka. Ka iti tu bhavatyeva.
Kushala Matruka astu bhagini.
Kushala Matruka. Samyak. Kushala Mata Yasyaha Sa. Kushala Matruka. Ramanujam Mohane. Mahati Siddhihi Yasyaha Sa.
Namaste. Maha Siddhihi.
Maha Siddhihi. Samyak. Yatra Ikarantahasti Tatra Anyaha Kopi Visheshahana Bhavati. Maha Siddhihi. Ityeva. Mahantaha Vrikshaha Yasyam Sa.
Mahantaha Vrikshaha Yasyam Sa. Maha Vriksha.
Maha Vriksha. Samyak. Antimaha Prashnaha. Radha Bhagini. Nishita Matihi Yesham Te.
Nishita Matiyah.
Matihi Mati.
Matayah.
Nishita Matayah. Nishita Mati iti pratipadikam. Yatha Harihi Hari Harayaha. Athava Matihi Mati Matayaha. Nishita Matayaha. Iti. Atra Kechana Prashnaha Santi. Sarva Priya Ityasya Kaha Arthaha. Yasya Sarva Api Priya Tatra Sarva Ityasya. Asmakam etan madhye sarvaha sarva sarvam sarva vyaktihi sarvaha padarthaha sarvam vastu ityataha yaha sarvamapi ichyati sarvasyapi sarvamapi yasya priyam bhavati saha ityarthaha sarva priya yasya saha sarva priyaha sarvasya priyaha sarva priyaha ityapi bhavati ubhayathapi vigrahaha vaktum shakyate. Drishta Samudra Ityasya Kaha Arthaha. यया समुद्रः दृष्टः. अस्मिन् काले प्रायः बहु विरलं न स्यात्, किन्तु पूर्वतनकाले ये देशस्य मध्यभागे भवन्ति तेषां समुद्रदर्शनमेव अत्यन्तं विरलतया भवति स्म. अतः समुद्रस्य दर्शनम् इति विशेषः. यया समुद्रः दृष्टः, सा दृष्टसमुद्र. हि हु हस् सीन् द ओशन् इत्यर्थः. अत्र दृष्टसमुद्री इति भवति वा इति प्रश्नः न भवति. तत्र दृष्टसमुद्रा इत्येव. तत्र स्त्रीलिङ्गशब्देषु आकारान्तः प्रत्ययः एव डिफाल्ट् भवति. यदि ईकारान्तः स्त्रीलिङ्गः भवेत् तत्र विशेषनिमित्तं किञ्चित् अपेक्ष्यते. सो इट् इस् अ सेपरेट् टापिक् बै इट् सेल्फ् on where we have akaranta strilingas and where we have ikaranta strilingas. So that requires a separate understanding of the pratyayas used, but in general akaranta is default. Okay, so usually you have akaranta. There are some cases where we do get ikarantas, which for this level you have to know through practice. Yatra ika kutra ईकारान्तः भवति, कुत्र आकारान्तः इति. दृष्टसमुद्रा इत्यत्र तु आकारः एव. मातृका, केन् यू प्लीज् एक्स्प्लेन्. यत्र ऋकारान्तः शब्दः अस्ति तत्र क इति प्रत्ययः भवति. अतः यदि पुल्लिङ्गे तर्हि कुशलमातृकः, यदि स्त्रीलिङ्गे तर्हि कुशलमातृका इति भवति. विशेषः कोऽपि नास्ति तत्र. हौ इस् इट् इन् सिक्स्त् वन् बुद्धिमत् पुत्रीका एण्ड् नाट् पुत्रीकः? ऐ सेड् इट्स् अ टैपिङ्ग् एरर्. सो इट् इस् बुद्धिमत् पुत्रीकः. मया तत्र टङ्कणे दोषः कृतः. यस्य सः इत्यस्ति चेत् बुद्धिमत् पुत्रीकः इत्येव. निशितमतयः. निशित इत्यस्य कः अर्थः? तीक्ष्णम् इत्यर्थः, शार्प्. सो दे हू हाव् अ शार्प् इण्टेलेक्ट् आर् निशितमत्तयः. तीक्ष्णमतिः, निशितमतिः इति कथ्यते. केन् ऐ से समुद्रक, दट् इस् दृष्टसमुद्रका. तदपि भवति, एस् ऐ सेड् इन् बहुव्रीहि समास. जनरली यु केन् आड् क प्रत्यय टु एव्रिथिङ्ग्. Okay, it is optional. So sarveshu bahuvrihi samasesu ka ityasya yojanam kartum shakyate. Ka ityasya yojane doshah nasti. Sarvatrapi mahavrikshaka, mahasiddhika, nishitamatikaha iti sarvatrapi ka ityasya yojanam kartum shakyate. Kintu keshuchit sthaleshu nityam ka pratyayah bhavati. यथा ईकारान्त उकारान्त स्त्रीलिङ्गेषु ऋकारान्तेषु च. तत्र तु निश्चयेन करणीयम्, अन्यत्र इच्छानुगुणं कर्तुं शक्यते अथवा न, उभयमपि युज्यते. अग्रे गच्छामः. इदानीं समासस्य विग्रहवाक्यं वक्तव्यम्. मूषिकवाहन मोदक हस्त इत्यस्ति प्रसिद्धं पद्यं. मूषिकवाहन इत्यस्य विग्रहः. महादेवन् महोदय.
मूषितवाहन, मूषितं वाहनं यस्यतः मूषितवाहनः. अत्र सम्बोधनं
मूषितः वाहनं यस्यतः. तत्र उभयोः समानलिङ्गत्वं सर्वत्र भवेदिति नास्ति. सो दोस् विच् आर् नार्मल्, दट् इस् स्त्रीलिङ्ग अड्जेक्टिव्स्. सो स्पेसिफिक् इफ् दे आर् विशेषणपदस् देन् वी हाव् दट् सेम् वचन आर् लिङ्ग. अत्र तु मूषिकः वाहनं यस्य सः. मूषिकशब्दः सामान्यतः पुल्लिङ्गे, वाहनशब्दः सामान्यतः नपुंसके. मूषिकः वाहनं यस्य सः मूषिकवाहनः. सम्बोधने मूषिकवाहन. विद्यारूपे विशालाक्षि, विद्यां देहि नमोऽस्तु ते. विशालाक्षि,
विशालाक्षि विशाले अक्षिणी तस्याः विशालाक्षी तत्र सम्बोधनं वा?
सम्बोधनं सत्यं, विशालाक्षि इति सम्बोधनं. हे नदी इतिवत् हे विशालाक्षि, विशाले अक्षिणी यस्याः सा विशालाक्षी, ईकारान्तः सम्बोधने विशालाक्षि. सम्यक्. अग्रे लक्ष्मीः पद्मालया पद्मा, प्रिया भगिनि.
लक्ष्मीः पद्मालया पद्मा, पद्मालया पद्मम् आलयं यस्याः सा.
पद्मम् आलयः यस्याः सा पद्मालया. आलयः निवासः इत्यर्थः. कमलपुष्पम् एव तस्याः निवासः, अतः सा पद्मालया इति कथ्यते. धन्यवादाः. अग्रे एकचक्रो रथो यस्य, एकचक्रः एकं पुनः वदतु. चक्रम्
एकं चक्रं यस्य सः.
सम्यक्. एकं चक्रं यस्य सः एकचक्रः. तत्र सूर्यस्य रथः एकचक्रः, एकमेव चक्रम् इति कथ्यते. अतः एकं चक्रं यस्य सः एकचक्रः. सम्यक्. अग्रे महालक्ष्मी भगिनि.
नमस्ते. भूमिपुत्रो
महातेजाः.
महान् तेजस् येषां
तेजः. तत्र एतत्तु एकवचनान्तमेव. वेधाः वेधसौ वेधसः, एवं महातेजाः इति एकवचनान्तं, तेजः इति नपुंसकलिङ्गम्.
महान् तेजः येषां ते
यस्य सः. भूमिपुत्रः महातेजाः. भूमिपुत्रः इत्यस्य एव विशेषणम्. अतः महत् तेजः यस्य सः महातेजाः. तेजस् शब्दः नपुंसकलिङ्गे तस्य तेजः तेजसी तेजांसि इति रूपं भवति. यदा तु पुल्लिङ्गे भवति तत्र वेधाः वेधसौ वेधसः, एवं महातेजाः महातेजसौ महातेजसः इति रूपं भवति. चन्द्रशेखरन् महोदय. महाबलौ
महत् बलं ययोः तौ.
महत् बलं ययोः तौ महाबलौ. प्रसिद्धः श्लोकः रामलक्ष्मणयोः विषये उच्यते. अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ, आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ. उभयोः विशेषणम्. अतः ययोः तौ महाबलौ. बुद्धो विज्ञानमात्रकः.
विज्ञाना माता यस्य सः.
विज्ञानं माता. ज्ञान विज्ञानं नाम विशिष्टं ज्ञानमेव माता. तदेव सः बहु मन्यते स्म इत्यर्थे एवमुच्यते. विज्ञानं माता यस्य सः विज्ञानमातृ इति भवति कप्रत्ययः. विज्ञानमातृकः. अग्रे अन्ये केऽपि वक्तुमिच्छन्ति? वश्यवाणीकाः विद्वांसः. राज आचार्य.
नमस्ते भगिनि. वश्यवाणीकाः वश्या वाणी येषां ते.
सम्यक्. वश्या वाणी येषां ते. सो दे हु हव मास्टर्ड स्पीच. येषां वाणी वश्या अस्ति, ते वश्यवाणीकाः विद्वांसः. सम्यक्. पूरिताशः महाघोषैः पूरिताशः पद्मनाभन
पूरिता आशा यस्यसः महापूरिताशः
पूरिता आशा यस्यसः वस्तुतः केवलं पूरिताशः इत्यत्र उभयथा भवितुम् अर्हति आशा डिजायर हूज डिजायर इज फुलफिल्ड सः अपि पूरिताशः भवति किन्तु अस्मिन् इन दिस कॉन्टेक्स्ट इट इज पूरिताः आशाः आशा इत्युक्ते दिक् इत्यर्थः डायरेक्शन सो हूज डायरेक्शंस वेर फिल्ड विथ महाघोषैः सो एतत्तु without the context it is difficult to guess it but in this context it is like he is talking about a place in which all directions are filled with great sound atah puritaah aashaah atra aashaah ityasya dishah ityarthah kintu samanyatah purita aasha yasya sah puritaashah ityapi yujyate अतीन्द्रियो महामायः अन्तिमम्
महती माया यस्य सः
सम्यक् महती माया यस्य सः महामायः अतीन्द्रियो महामायः इति विष्णुसहस्रनामस्तोत्रे अस्ति महामायः महती माया यस्य सः महामायः अत्र केऽपि प्रश्नाः सन्ति वा पूरिताः आशाः इज इट नॉट कर्मधारय इति प्रश्नः यदि दिशां विषये एव उच्यते तदा पूरिताः आशाः पूरिताशाः इति कर्मधारय समासः भवति तदा तु आशा इत्यस्य प्राधान्यम् यदा तु यस्मिन् प्रदेशे अथवा यस्य प्रदेशस्य सर्वाः दिशः इति अन्यपदार्थस्य प्राधान्यम् तदा बहुव्रीहिः सामान्यतः सर्वत्र बहुव्रीहौ इट इज आल्सो पॉसिबल टू हैव अ कर्मधारय बिकॉज़ वी आर टॉकिंग अबाउट विशेषण विशेष्य इट इज पॉसिबल कस्य अर्थम आश्रित्य कर्मधारयः वा बहुव्रीहिः वा इति वक्तव्यम् ओके कैन इट बी महत् माया See, the thing is, when we are talking about visheshana, visheshya, there are two kinds of visheshanas. One is a visheshana which can be in all three lingas. Like you have mahan, mahati, mahat, unnataha, unnata, unnatam, sundaraha, sundari, sundaram. Such adjectives, what we call as adjectives in English, so they are in all three lingas. In that case we choose that particular linga which suits the visheshya but in sanskrita please note that wherever there is samanadhikaranya wherever we are talking about visheshana visheshya it need not be that the visheshana is in all three lingas for example when I say mushikaha vahanam so in general or simhaha vahanam the simha is not an adjective in the sense of English right so it is not a visheshana which is like in all three lingas so in such cases it is acceptable what we are talking about here is just samanadhikaranya simha itself is the vehicle so the simha padartha and vahana padartha is the same so in such cases we need not have it both in the same linga so it purely depends on what kind of a word it is so where it is possible you have to choose the same linga say mahati maya tatra mahati tyasti atah mahan maya iti va mahat maya iti va vaktum na shakyate yatra tu tadrisham visheshana padam na tatra you can use it in different lingas. For example, when I say vijnanam, jnanam, vijnanam, iti napumsaka lingasya eva padam. Tatra you don't have an option. So vijnanam mata. So he who considers knowledge, that specific knowledge itself as mother. So tatra vijnanam mata ityatra bhinna lingasya upayogaha kartum shakyate. Okay. How do we know if bala shabda, if you know the original shabda for the linga, you have to know through practice or through the kosha. So balahava balamva ityatra abhyasena jnatavyam athava kosham ashritya jnatavyam. Okay. So if you just put a search, for example, if you put vijnana, you will get that it is napumsakalinga. Similarly, vahana, if you put it is napumsakalinga. Okay. Vashya ityasya kahartha, vashe asti iti vashya, that which is in control, under control ityartha. What is the ekavachana form? Vashyavani kaha, vashyavani kaha vidvan. So vashyavani kaha, vashyavani kau, vashyavani kaha iti bhavati. In Mahabalau, Mahati Bale Yayauhu Tau iti vaktum shakyateva. See, you have to, when Bala means strength, we just use it as in Ekavachana. If you are specifically talking about two kinds of strengths, tada Mahati Bale Yayauhu iti vigraha vaktum shakyate ka vivaksha iti drashtavyam. Vashyaha vanyaha yeshamte tadapi shakyate. I said whether you use ekavachana or bahuvachana. So where speech is under control. So if we want to say different kinds of speech, bahuvachane api vaktum shakyate. Mahatejah punaha vivaranam, see tejah iti napumsaka lingasya shabdah, yada bahuvrihi kriyate tada lingatraye api bhavati. So the sakaranta mahatejas iti sakarantam pratipadikam. Yada napumsaka linge bhavati tada tejah tejasi tejamsi iti bhavati. Yada pullinge bhavati tada pullinge sakarantaha yaha shabdah tadvat bhavati. अस्तु अग्रे गच्छामः. व्यधिकरण बहुव्रीहिः एतावता अस्माभिः दृष्टः समानाधिकरण बहुव्रीहिः, विच इज द मोस्ट कॉमन काइंड ऑफ बहुव्रीहि. वी हैव अदर टाइप्स आल्सो, एक्चुअली ऑल टाइप्स ऑफ बहुव्रीहि आर प्रिटी कॉमन. तत्र व्यधिकरण बहुव्रीहिः समानाधिकरणम व्यधिकरणम. सो व्यधिकरण इज द ऑपोजिट ऑफ समानाधिकरण, राइट. यत्र समानाधिकरणम नाम किम्, उभयोः पदयोः पदार्थः समानः, व्यधिकरणे पदार्थः भिन्नः इत्यर्थः. तत्र सामान्यतः प्रथमान्तं पदं सप्तम्यन्तेन पदेन सह समासं प्राप्नोति. व्यधिकरण बहुव्रीहौ. So a prathamanta word combines with a saptamyanta word. Samanyataha saptamyantam avayava vachakam bhavati. Dehasya kashchir avayavamha tena uchyate. Udaharanani pashyamaha. Chakram panau yasya saha. Chakrapani. Yasya panau haste chakramasti. Saha chakrapani. अत्रापि अन्य पदार्थस्य एव प्राधान्यम्. सो वी आर नॉट चक्रपाणिः गच्छति इत्युक्ते चक्रम न गच्छति, पाणिः अपि न गच्छति. यस्य पाणौ चक्रमस्ति सः पुरुषः गच्छति. अतः अन्य पदार्थ प्राधान्यम्. अत्र चक्रपदार्थः भिन्नः पाणिपदार्थः भिन्नः. दट् इस् वै वि काल् इट् व्यधिकरण इन् समानाधिकरण. दे बोत् रेफर् टु द सेम् आब्जेक्ट्. ओके, इन् व्यधिकरण दे आर् टु डिफरेण्ट् आब्जेक्ट्स् विच् कम् टुगेदर् टु सिग्निफै अ थर्ड् आब्जेक्ट्. चन्द्रः मौलौ यस्य सः, मौलिः शिरः इत्यर्थः. यस्य शिरसि मस्तके चन्द्रः अस्ति सः चन्द्रमौलिः. परशुः हस्ते यस्य सः परशुहस्तः. अङ्कुशं करे यस्य सः अङ्कुशकरः. सो नार्मल् पाटर्न् आफ् दिस् व्यधिकरण बहुव्रीहि इस् यु हाव् समथिङ्ग् इन् प्रथमा विभक्ति. The second word is in Saptami Vibhakti and it indicates some part of the body. That is the usual pattern. Atra kechid apavadaha santi. Saptamyantam purvapadam bhavati. Bhale netram yasya saha bhala netraha. Bhalam lalatam forehead. So he who has an eye in the forehead. Tatra bhala netraha bhala lochanaha. भाल फाल उभयमस्ति, अर्थः समानः. बोत् भाल एण्ड् फाल मीन् द सेम् द फोर् हेड्. सो अत्र द सप्तम्यन्त इस् द पूर्वपद इन्स्टेड् आफ् द उत्तरपद. दिस् इस् अ रेर् केस्. यूजुवलि द सप्तम्यन्त इस् द उत्तरपद. ओके, अत्र विग्रहवाक्यं वदन्तु. मोदकहस्तः. सुजाता भगिनी,
मोदकं हस्ते यस्य सः.
सम्यक्, मोदकं हस्ते यस्य सः मोदकहस्तः. विषकण्ठः. सीता भगिनी,
विषं कण्ठे यस्य सः.
विषं कण्ठे यस्य सः विषकण्ठः. सम्यक्. गदापाणिः. रामकृष्णराव महोदय.
गदा यस्य पाणौ सः.
गदा पाणौ
यस्य पाणौ
सः. सम्यगेव.
गदापाणिः
उत्तमम्. रघुपति महोदय. You have to unmute yourself.
चापः हस्तौ यस्य सः चापहस्तः.
चापः
हस्ते, सारि, हस्ते यस्य सः.
सम्यक्, चापः हस्ते यस्य सः चापहस्तः. सम्यक्, चापः इत्यस्य धनुः इत्यर्थः. अग्रे शोभा भगिनी.
शङ्खपाणिः. शङ्खं पाणौ यस्य सः शङ्खपाणिः.
सम्यक्, शङ्खः शङ्खम् उभयमस्ति, पाणौ यस्य सः शङ्खपाणिः. उत्तमम्. श्रीवत्सवक्षाः. प्रिया भगिनी.
श्रीवत्सं यस्य वक्षसि येषां वक्षांसि.
यस्य एव एकवचनान्तमेव. लैक् द महातेजाः. दिस् इस् आल्सो एकवचन.
श्रीवत्सं यस्य वक्षसि सः.
श्रीवत्सवक्षाः. श्रीवासः इति विष्णोः नाम. श्रीवत्सः वक्षसि यस्य सः. वक्षसि वक्षस्थले श्रीवत्स इति चिह्नं, विष्णोः वक्षसि विद्यमानं चिह्नं, तस्य श्रीवत्सः इति नाम. श्रीवत्सः वक्षसि यस्य सः. श्रीवत्स वक्षस् इति सकारान्तं प्रातिपदिकं. सो प्रथमाविभक्तौ एकवचने वक्षाः इति भवति. गदा पाणौ यस्य सः या पाणौ इज सप्तमी विभक्ति एकवचन ही इन हूज हैंड देयर इज अ गदा गदा कैन बी हेल्ड इन वन हैंड ओके व्हाइल फाइटिंग मे बी यू रिक्वायर टू हैंड्स टू फाइट बट नॉर्मली व्हेन यू सी से लक्ष्मी और विष्णु होल्डिंग द गदा इट इज हेल्ड इन वन हैंड अतः गदापाणव यस्य सः गदापाणिः इत्येव पाणौ इज सप्तमी एकवचनम् ओके सो अयम् व्यधिकरण बहुव्रीहिः ओके सरलमस्ति प्रथमान्तं पूर्वपदं सप्तम्यन्तं उत्तरपदं भवति अग्रिमः प्रभेदः नै बहुव्रीहिः ओके इदमपि सरलम् पूर्वपदं नञ् नञ् इत्युक्ते न इति अव्ययं भवति उत्तरपदं सुबन्तं भवति प्रथमान्तं सुबन्तं भवति ओके सो इट इज वेरी डिफिकल्ट टू जस्ट लुक एट द फिजिकल फॉर्म ऑफ नञ् तत्पुरुष एंड नञ् बहुव्रीहि इज द सेम यू हैव न एंड यू हैव अ सुबन्त एंड व्हेन यू जॉइन इट विल बी द सेम केस इफ इट इज If the Uttarapada starts with a Vyanjana, you hear A. If it starts with a Swara, we hear An. Right? So the physical form is the same. Na dhanam yasya saha adhanaha. Na dhana tatra A iti bhavati adhanaha. Tatra vigraha vakye na ityukte na vidyate athava nasti yasya dhanam nasti saha adhanaha. न विद्यते पुत्रः यस्य सः अपुत्रः सो विद्यते इज नॉट पार्ट ऑफ द समास इट इज जस्ट देयर टू इंडिकेट द एब्सेंस नास्ति इत्यर्थः सो न विद्यते पुत्रः यस्य सः अपुत्रः न विद्यन्ते अश्वाः येषां ते अनश्वाः अश्व इति अजादि आदौ स्वरः अस्ति अतः अन् इति भवति अनश्वाः न विद्यते बलं यस्याः सा अबला एवम् अ अथवा अन् भवति तर्हि कः भेदः नञ् बहुव्रीहेः नञ् तत्पुरुषस्य च एकं तु लिङ्गं से इफ् यु आर् जस्ट् सेयिङ्ग् न बलम् अबलम् न धनम् अधनम् इति The original linga is preserved in nai tatpurusha. Okay, tasya padasya yat lingam, tadeva lingam bhavati. Bahuvrihi samasetu, linga trayam api bhavati. Adhanaha, adhana, adhanam, aputraha, aputra, aputram, anashvaha, anashva, anashvam, abalaha, abala, abalam, evam linga trayam api bhavati iti ekaha vishayaha. But more important than that is the meaning. What is the meaning intended? Say, aputraha. Are you saying a son? He is not a son. That is, he is not worthy of being a son. So, na putraha, aputraha. Or, are you talking about the father? Nasti putraha yasya saha. Yasya putraha eva nasti tadrishaha purushaha. I mean, he is not a father because he does not have a son. So, are you talking about the son? Or are you talking about somebody who does not have a son? Okay, similarly, when I say Anashvaha, are you saying that this is not a horse? Or are you saying he is somebody who does not have a horse? Artham Ashritya Eva Nai Bahuvrihehe Nai Tatpurushasya Cha Bhedaha Vaktum Shakyate Anyaha Bhedaha Nasti So the linga is there, but it need not be there everywhere. Ataha lingam drishtva sarvatra vaktum na shakyate. Artham ashritya eva tatpurusha samasahava bahuvrihi samasahava iti vaktavyam bhavati. Okay. Eka prashnaha adhanaha nirdhanaha arthaha samanahava. Tatratu समानः एव समासः तत्र प्रादिः अस्ति निर्गतं धनं यस्मात् सः निर्धनः इति अतः अर्थः तु समानः सामान्यतः अधनः निर्धनः इत्येतयोः. एवं न विद्यते ऊरुः यस्य सः. ऊरुः थै ओके. अनूरुः सूर्यस्य अनूरुसारथिः इति नाम. सूर्यस्य सारथिः अरुणः, तस्य ऊरुः नास्ति इति प्रथा. इट् इस् सेड् दट् अरुण हु इस् द चारिटियर् आफ् सूर्य डस् नाट् हाव् थैस्, हि इस् लेम्. अतः अनूरुसारथिः इति सूर्यस्य नाम. अनूरुः इत्युक्ते न विद्यते ऊरुः अथवा न विद्येते ऊरू यस्य सः, द्विवचने अपि वक्तुं शक्यते. स्त्रीलिङ्गे किं भवति? यदा स्त्रीलिङ्गस्य नैबहुव्रीहिः क्रियते समानं भवति. द सेम् रूल्स् आर् फालोड्. दट् इस् आकारान्तं भवति चेत् ह्रस्वः. न विद्यते विद्या यस्य सः अविद्यः. ईकारान्तम् अस्ति चेत् क प्रत्ययस्य योजनं भवति. न विद्यते पत्नी यस्य सः अपत्नीकः. न विद्यते भ्राता यस्य सः. सोरि, ऐ शुड् हव् नाट् गिवन् भ्राता. सो ऋकारान्तः शब्दः इति दत्तं, तत् पुल्लिङ्गे वा स्त्रीलिङ्गे वा तत्र क प्रत्ययः भवति. अभ्रातृकः. सो प्लीस् ऐ मीन् अण्डर् द हेडिङ्ग् स्त्रीलिङ्ग ऐ शुड् नाट् हव् गिवन् भ्राता. ऐ एक्चुली रोट् माता इनिशियली, देन् ऐ थाट् ऐ कीप् गिविङ्ग् माता, सो ऐ चेञ्ज् इट्. बट् एनिवे, सो ऋकारान्तः शब्दः पुल्लिङ्गे वा स्त्रीलिङ्गे वा अस्ति चेत् तत्र क प्रत्ययः भवति. अभ्रातृकः, हि हु डस् नाट् हाव् अ ब्रदर्. न विद्यते बुद्धिः यस्य सः अबुद्धिः. ओके, सो आकारान्तस्य ह्रस्वः, ईकारान्तस्य उकारान्तस्य ऋकारान्तस्य वा क प्रत्ययः भवति. इकारान्तं चेत् किमपि न भवति. सो आकारान्तस्य ह्रस्वः, ई उ ऋकारान्तानां कः इति नियमः सर्वत्र बहुव्रीहौ भवति. ओके, इट् इस् नाट् ओन्ली फार् समानाधिकरण बहुव्रीहि, सर्वत्र बहुव्रीहि समासे. अस्वसृकः भवति वा? भवति. न विद्यते स्वसा यस्य सः. हि हु डस् नाट् हाव् अ स्वसृ, दट् इस् अ सिस्टर् इस् अ स्वसृकः. तदपि भवति. ओके, सो अत्र अभ्यासं कुर्मः. समस्तपदं वक्तव्यम्. न विद्यते अङ्गं यस्य सः. जयश्री.
न विद्यते अङ्गम् अनङ्गः.
अनङ्गः, सम्यक्. अनङ्गः, अनङ्गः इत्युक्ते कः जानाति वा? मदनः अथवा मन्मथः. सत्यं, कामदेवः. सः शिवेन दग्धः. अनन्तरं रतिदेव्याः प्रार्थनां पुरस्कृत्य तस्य जीवः पुनः दत्तः परमेश्वरेण. पार्वती अपि वदति इति, किन्तु तस्सः न दृश्यते, तस्य अङ्गं नास्ति. हि डस् नाट् हाव् अ फिसिकल् बाडि. अतः अनङ्गः, मन्मथः इत्यर्थः. अ अङ्ग, अ इति स्वरः अस्ति, अतः अन् इति भवति, अनङ्गः. न विद्यते निद्रा यस्य सः. अनन्तकृष्णन् महोदय.
अनिद्रः.
अनिद्रः, सम्यक्. न निद्रा यस्य सः अनिद्रः. उत्तमम्. महालक्ष्मी भगिनी. न विद्यते नाथः यस्याः सा.
अनाथा.
अनाथा, सम्यक्. अनाथः, अनाथा आर्फन् इत्यर्थे उपयुज्यते. न नाथः, स्वामी अथवा रक्षकः कोऽपि नास्ति इत्यर्थः. न विद्यन्ते गृहाणि येषां ते. सुब्रह्मण्यं महोदय. You have to unmute yourself.
Sorry. Na vidyate gruhani esham te. Agruhaha.
Agruhaha. Samyak. Agruha. येषां ते बहुवचनम् अस्ति अतः अगृहाः. येषां गृहं नास्ति ते अगृहाः. न विद्यते ईशः यस्य सः. उमेश महोदय. You have to unmute yourself. Umesh Mahode, you have to click on the microphone to unmute yourself.
Shriyate. Anishah, na vidyate ishah.
Samyak. Anishah. Anishah, na vidyate ishah yasya saha. He who does not have a lord above him. Anishah ityapi bhagavatah. Vishnu sahasra namastotre api asti. अनीशः ही हू डज नॉट हैव अ मास्टर सः अनीशः. सो ततोपि श्रेष्ठः अथवा स्वामी कोऽपि नास्ति इत्यर्थः. राव महोदय. न विद्यते लक्ष्मीः यस्य तत्. राव महोदय.
न विद्यते लक्ष्मी यस्य तत्. अलक्ष्मी.
अलक्ष्मी
कः?
तत्.
अलक्ष्मीकम्.
अलक्ष्मीकम् सम्यक्. अलक्ष्मीकम् गृहम्. अ वेरि पुअर् हौस् इत्यर्थः. यत्र लक्ष्मीः नास्ति. वेर् देर् इस् नो वेल्त्. अलक्ष्मीकम् उत्तमम्. एवं नञ् बहुव्रीहिः. तत्र नञ् पूर्वपदं भवति. उत्तरपदं सुबन्तं भवति. समस्तपदं त्रिषु अपि लिङ्गेषु भवति. एस् इस् द केस् वित् आल् बहुव्रीहि समासस्. प्रश्नाः सन्ति वा? अविनाशः इति बहुव्रीहिः वा तत्पुरुषः वा? इट् केन् बि एनिथिङ्ग्. एस् ऐ सेड् यु केन् से न विनाशः अविनाशः और् न विनाशः यस्य सः अविनाशः. सो अर्थम् आश्रित्य विग्रहः वक्तव्यः भवति. Anishaha can also mean an atheist. Yatra tu Ishaha ityasya Bhagavan ityarthaha, a god. When Isha is used in a sense of god, then maybe you can take it. But samanyataha Isha iti we usually use as a master and not necessarily god. Vaktum shakyate vivaksha mashritya. वक्तुं शक्यते. अग्रे गच्छामः. अग्रिमः प्रभेदः बहुव्रीहेः. सः पूर्वपद बहुव्रीहिः. नाम्ना एव ज्ञायते. सः इति पूर्वपदं भवति. प्रथमान्तं सुबन्तम् उत्तरपदं भवति. अत्र विशेषः समस्तपदे सः इत्यस्य स्थाने स इति भवति. पुत्रेण सह वर्तते. He who is with the son. सपुत्रः. सः इत्यस्य स्थाने स इति भवति. सः इत्यपि भवति. It is optional. The Kovida textbook gives only the first form. सपुत्रः इत्येव दीयते. अतः यदि परीक्षां लिखन्ति कृपया सपुत्रः इत्येव लिखन्तु. किन्तु उभयथा अपि अस्ति, रूपद्वयमपि अस्ति, रूपद्वयमपि श्रूयते काव्येषु. अतः मया अत्र रूपद्वयं दीयते, परीक्षायां स इत्येव लिखन्तु. इट् इस् मोर् पाप्युलर् वित् जस्ट् स. सपुत्रः लक्ष्मणेन सह वर्तते इति सलक्ष्मणः. सलक्ष्मणः कः? रामः. He who is with Lakshmana is Salakshmanah, not Lakshmana himself. So Salakshmanah athava Sahalakshmanah. Bharyaya saha vartate, atrapi harasvaha kapratyayaha sarvam api bhavati. Ataha bharyaya saha vartate iti sabharyaha sahabharyaha. Putriya saha vartate iti saputrikaha sahaputrikaha. उभयम् अस्ति. सो अलोङ्ग् वित् इत्यर्थः. अत्र विग्रहवाक्यानि वदामः. वेरि ईज़ी, इट्स् जस्ट् सो यु जस्ट् हेव् टु यूस् द तृतीया विभक्ति एण्ड् से सः वर्तते डेश् सः वर्तते. दट् इस् द विग्रहवाक्य फोर् दिस् समास. उमादेवी भगिनि
नमस्कार. सीतया सह वर्तते.
सीतया सह वर्तते इति स सीतः. उत्तमम्. सुधा भगिनी.
दोषेण सह वर्तते इति
सदोषम्. सो दोषेण सह विद्यते अथवा वर्तते इति सदोषम्. विद्यते वर्तते बोत् आफ् देम् इस् ओके. ऐ मीन् इट्स् बोत् द सेम्. सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्. सदोषं कर्म. सो दोषेण अथवा दोषैः सह वर्तते इति सदोषम्. रामकृष्णराव महोदय सह भर्तृका.
भर्तृकेन सह. सह भर्तृका.
भर्त्रा सह इत्यपि वक्तुं. भर्तृ इति ऋकारान्तम्, अतः क इति योज्यते. भर्त्रा सह विद्यते वर्तते इति सह भर्तृका. भर्ता पतिः इत्यर्थः. सायुधः. अनन्तकृष्णन् महोदय.
आयुधेन सह वर्तते इति स आयुधः.
आयुधेन सह वर्तते. सो यु गेट् स आयुध, सन्धौ सायुधः. साशङ्काः.
शङ्कया सह वर्तते इति साशङ्काः.
सशङ्कः. सशङ्कः. शङ्कया सह वर्तन्ते इति सशङ्काः. साशङ्काः.
स आशङ्काः.
आशङ्कया सह वर्तन्ते. आशङ्कया. अर्थः समानः एव, शङ्का आशङ्का इति. किन्तु स शङ्कः अथवा साशङ्कः इति रूपे भेदः भवति. राधा श्रीनिवासन्. सह बान्धवाः. सह बान्धवाः इत्यस्ति. अतः बान्धवैः सह वर्तन्ते इति सह बान्धवाः. अत्र सर्वत्रापि सबान्धवाः, सह शङ्काः, सहायुधः इति उभयत्रापि अस्ति. उभयथापि प्रयोगः अस्ति. अन्तिमः प्रभेदः बहुव्रीहिसमासे उपमानपूर्वपदबहुव्रीहिः. अयं बहुव्रीहिः परीक्षायां नास्ति. रैट्? सो इट् इस् नाट् प्रिस्क्रैब्ड् फार् द एक्साम्. इट्स् नाट् इन् द सिलबस् आफ् कोविद. किन्तु बहुत्र अस्माभिः दृश्यते अस्य प्रयोगः. अतः वदामि. एतत्तु सरलमेव. उपमानवाचकं पूर्वपदं भवति. prathamantam uttarapadam bhavati. So that is upamana purvapada bahuvrihi samasa. Rajive iva netre yasya saha. He whose eyes are like lotuses. Rajivam kamalam ityarthaha. So Rajive iva netre yasya saha. He whose eyes are like lotuses. Rajiva netraha. Atra Rajivam iti purvapadam upamanam. Ataha upamana purvapada bahuvrihihi. Chandraha iva vadanam yasyaha sa. He whose face is like the moon. Chandra vadana. Chandraha upamanam bhavati. Vajram iva hridayam yasya saha. Vajra hridayaha. Atra vajram upamanam. Vajram iva hridayam. He whose heart is hard like the diamond. Ityarthaha. Very strong maybe. So vajram iva hridayam yasya saha. Vajra hridayaha. Kusumam iva chetaha yasya saha. So chetaha chittam. So this is the opposite. He whose mind is like flower. That is as soft as a flower. Ityarthaha kusuma chetaha. Atra sarvatra api upamanam purvapadam asti. Ataha upamana purvapada bahuvrihi. Okay. Charushila. Charushilam yasyaha sa. So that is normal visheshana. Charu means beautiful or that which is very attractive. So tatra samanyataha samanadhikarana bahuvrihihi. Upamanam yatra asti iva iti yatra bhavati tatra upamana purvapada bahuvrihihi. So this is one kind of bahuvrihi. There is also some other things like the very famous gajananaha. Kaha artha hatra? Gajaha iva ananam yasya saha iti va iti chet. His face or head is not like the elephant. It is like the head of the elephant. So atra vigraha vakye dvedha bhavati. Depending on the meaning, in upamana purvapada bahuvrihi, we have to give two kinds of vigraha. Atra gajaha iva ananam yasya saha iti na. Because the anana is not like the entire elephant. His head is like the head of the elephant. Ataha gajananam iva ananam yasya saha. First we do a samastapada. Gajasya ananam. The head of the elephant. So gajananam iva ananam yasya saha gajananaha. Similarly when I say hamsa gamana. He gamanam nama gate. It means she who walks like the swan, or she whose gate is not like a swan. That is, the gate is not compared to the swan. The gate is compared to the gate of the swan. Like the swan walks, similarly she walks. Ityarthaha. Ataha hamsaha iva gamanam ityarthaha na. Hamsa gamanam iva gamanam yasyaha sa hamsa gamana. It is not directly hamsa is compared to the gamana. Unlike, say, the previous cases. We'll go back now and we'll know. Here, the eye is directly like the lotus. The eye is not like the eye of the lotus. I mean, the lotus does not have an eye. So, the eye is directly compared to the lotus. The face is directly compared to the moon. Heart is directly compared to the vajra, that is diamond. So there are direct comparisons, whereas atra gajananam iva ananam. So the anana is not directly compared to the elephant. It is compared to the head of the elephant. So gajananam iva ananam yasya saha iti vigraha. अत्र एकस्य आननशब्दस्य लोपः भवति. एवमेव हंसगमनम् इव गमनं यस्याः सा हंसगमना, एकस्य गमनशब्दस्य लोपः भवति. एवम् उपमानपूर्वपदबहुव्रीहेः प्रयोगः बहुत्र अस्माभिः क्रियते. तत्र विग्रहवाक्ये सरलं किन्तु किञ्चित् विचिन्त्य वक्तव्यं भवति. ओके, अस्तु. अत्र केचन प्रश्नाः सन्ति. आननं नाम वदनम्. आम्, आननं वदनं समानम्. इट् इस् यूस्ड् फार् द फेस्, फार् मौत्, फार् हेड्, ऐ मीन् फार् आल् वि यूस् इण्टर्चेञ्जब्लि इन् संस्कृत. अस्तु, चन्द्रमौलिः, केन् इट् आल्सो बि उपमानपूर्वपद? आर् वि कम्पेरिङ्ग् द हेड् टु द चन्द्र? Mauli is the top of the head, so the head is not compared to Chandra. So Chandra Mauli is he who has Chandra. So Chandraha Maulau Asti Yasya Saha Chandra Maulihi. Tatra Upamana Bhavaha Nasti. There is no comparison there. Okay. अस्तु, मृगेन्द्रगामी, इस् इट् लैक् गजाननम्? सो मृगेन्द्रगामी इस् अ स्लैट्लि डिफरेण्ट्. वील् सी दट् इन् टुमोरोस् क्लास् बिकास् रघुवंश हेस् द वर्ड् मृगेन्द्रगामी. तत्र पश्यामः. बालचन्द्रः इत्यस्य कः विग्रहः? बालः च असौ चन्द्रः च बालचन्द्रः, दट् इस् अ यङ्ग् मून् इत्यर्थः. सो there is also Bhalachandraha. Bhalachandraha means Bhale Chandram Yasya Saha, he who has the Chandra on his forehead. That is so Vinayakasya Bhalachandraha iti nama asti. Ataha Bhala athava Bhalachandraha ityasya arthaha bhinnaha, Bhalachandraha ityasya arthaha bhinnaha. Padmasanam ityatra padmam iva asanam, tattu karmadharayaha. तत्र यत्र हि तत्तु आसनमेव. यस्य सः इति अन्यपदार्थः नास्ति. पद्मम् इव आसनं, पद्मासनम् इत्यत्र कर्मधारयसमासः एव वक्तव्यः. अग्रे गच्छामः. अभ्यासः अस्ति. अत्र किञ्चिद् विचिन्त्य अष्ट उदाहरणानि सन्ति. कीदृशं भवति? इस् इट् डिरेक्ट् लैक् राजीवनेत्र, राजीवम् इव नेत्रम्, अथवा गजाननम् इव आननं यस्य इति वक्तव्यं वा इति चिन्तयामः. हरिणाक्षी इति प्रथमम्. चन्द्रशेखरन् महोदय,
हरिणाक्षी इव अक्षी यस्याः सा.
हरिणाक्षी इव अक्षी, अथवा हरिणाक्षिणी इव अक्षिणी. So she whose eyes are like the eyes of the deer. So it is not directly compared to the deer, but the eye of the deer. Ataha Harinakshi iti dvitiya prabhedah. Harinakshini iva akshini yasyaha sa. So akshi shabdah, akshi, akshini, akshini. Two eyes usually. Ataha akshini iti uchyate. Next is Chandramukhi. अनन्तकृष्णन् महोदय,
चन्द्रः इव मुखं यस्याः सा चन्द्रमुखी.
चन्द्रः इव मुखं, सो प्रथमं वा द्वितीयं वा?
प्रथमं.
चन्द्रः इव मुखं, द मुख इस् डिरेक्ट्लि कम्पेर्ड् टु द चन्द्र. सम्यक्. पङ्कजलोचनः महादेवन् महोदय.
पङ्कजलोचनः, पङ्कजे इव लोचने यस्य सः, पङ्कजलोचनः यस्याः सः. both Lakum Pankajalotanaha. That is the first type, like Rajivanetaha.
Sammik. Pankajalotanaha. Pankaje iva lochane. Yasya saha pankajalotanaha. Sammik. So there is this actually famous song, which has like the whole of Anupallavi is full of this Madhava Mamava Deva. So Pankajalochana Kambu Shubhagriva Bimbadhara Chandra Bimbanana. So everything is Upamana Purva Pada Bahubrihi Samasa. Okay, so if you know the song, you're listening to it next time, you can listen to it. So Kambu Griva is the next word. Rajesh Nair Mohanaya.
Prathamaha Prabhedaha.
So Kambu means a conch. Shankha ityarthaha. So that which is white and rounded. Griva is the throat. So Kambuhu or Kambu iva Griva yasya saha. He whose throat is like that of Kambu. Kambu is a conch. Shankha. So it is used as upamana both for the whiteness and for curved, smooth and curved. Ataha Kambu Grivaha. Ushtramukhaha. Raghupati Mahodaya.
Ushtramukha. Ushtramukham iva.
First or second?
Second one.
Ushtramukham iva mukham yasya saha. Camel faced. So he whose face is like the face of a camel. Ityarthe ushtramukha. Agrimam gajagamanaha. Umesha Mahodaya. You have to unmute yourself.
Gajagamani iva gamana.
Gajagamanam iva gamanam yasya saha gajagamanaha. He who walks majestically like the elephant walks. Ataha gajagamanam iva gamanam yasya saha. Shurpanakha. Uma Bhagini. You have to unmute yourself. Ouch, sorry. I didn't see it move. Nashruyate.
Shurpanaga first one.
Yeah. Shurpe iva. Nakau, sorry. What is happening? Something wrong with the animations. So Shurpanakha. So Shurpa is moram. So the winnowing thing we use for cleaning rice and all that. So that which is very wide and ugly. Ityarthe upayujyate. So Shurpanakha. Iti. The nakhas are directly compared to the Shurpas. So antimam. Vrukodaraha.
Hariyom.
Hariyom.
Vrukodaraha iva udaraha. Second one.
Vrukodaram iva udaram.
Vrukodaram iva udaram. Yes, yes.
He whose tummy is like the tummy of a wolf. So here, actually the wolf apparently eats a lot, but still it doesn't accumulate fat in its belly. It looks very lean. So, Vrukodaraha. Bhima is called Vrukodara. Vrukasya udaram iva udaram yasya saha Vrukodaraha. Ushtramukhaha kaha. It is not famously used for any personality. Anybody who is samanyataha kurupaha kaschit bhavati. Tasya ushtramukhaha iti. He who has camel faced iti udaharanani diyante shastre kaha ushtramukaha ityasya vishishya kimapi nasti yatha vrukodaraha ityukte bhimaha iti prasiddhihi asti tatha kasya api nasti. Can you please explain what is shurpa again? Shurpa is it is called a winnowing basket in English. It is like that what it is, I don't know how to explain it. It's very popularly used in households where, I mean, especially in older times where you separate grain from chaff. So the wide this thing, that's what we call it, mora in Kannada, also moram in Tamil, if somebody else knows in some other language. This one. Okay. So shurpaha nakaha yasya, no, shurpaha eva, as in it is compared to that. Shurpa does not mean sharp. I had this Brahma very, you know, when I was young, I used to think that she who has very sharp nails, because, I mean, there is some resemblance between shurpa and sharp. Okay. So when I was small, I had that, this one. So that is not the case, actually. So, vainatva. So two questions which don't have a very easy answer. One thing is vainatva in shurpanakha. So there is a special sutra which gives natva even when the repha and nakara is in separate words, that is purva uttarapada. I think I told last time that both of them have to be in the same word, otherwise we won't get natva. There are exceptions, especially a samgya, when it is a name of somebody, then you do have natva in such cases. Okay? There is a special sutra. Also, Chandramukhi, Vai Ikara and not Akara. There again, there is a special sutra which gives Ikara. Okay? As I said, the Ikara is possible, like in Harinakshi. If there is Akshi Shabda, then it becomes Ikaranta. Similarly, in Mukha Shabda, it becomes Ikaranta. So, they are all special rules which we will sometimes study in the Stri Pratyaya Prakarana. Okay. So, Shurpaha Iva Nakhaha Shurpa Nakhaha. Satyam, Shurpa Karanaha Iti Ganeshasya Asti. Shurpau Iva Karanau Yasya. He whose ears, they are wide and shaped like that of the Shurpa. Ataha. Shurpa karanaha iti ganeshasya asti tatrapi samasaha samanaha shurpau iva karanau yasya saha sadaraha ityasya kaha vigraha daraihi saha vidyate vartate iti sadaraha daraha ityukte patni sadaraha patnya saha asti ityarthaha. Okay. So oh, nice. So, even an elephant is called Shurpakarana. Yeah, of course, the elephant has big eyes. So, in Marathi, it is called Soup. Thank you. So, yeah, that is what it is. So, Atra Adya Samapayamaha Asmabhihi Bahubrihi Samasasya Pancha Api Prabhedaha Adhitaha Samanadhikarana Vyadhikarana Nai Sahapurvapada Upamana Purvapada. So, Bahubrihi Samasaha Sulabhaha, the basic concept you have to get is that changing the linga, okay, from the original linga to the three lingas. Tavadeva. Shvaha, Kripaya Avadhanam Ichantu, Shvaha Sardha Saptavadane Vargaha. Sorry, I am leaving somewhere by a night train, so I have to leave by around 9. So, preponing it by half an hour. Tomorrow's Raghuvamsha class at 7:30 p.m. Okay, I'll change the schedule and you will get a mail regarding the change in timings. So, Shvaha Sardha Saptavadane Ratrau Vargaha Bhavati Raghuvamshasya. Mangalam Kurmaha Agre Prashnaha Santi Chet Uttaram Dadami. Gurureva Gatir Gurumeva Bhaje Gurunaiva Sahasminamo Gurave Naguroh Paramam Shishurasmi Guror Matirasti Guru Mamapahi Guru. Shurpaha iti पुल्लिंगे एव शब्दः इति चिन्तयामि. इट् इस् नाट् इन् अदर् लिङ्गस् एस् फार् एस् ऐ नो. इट् कुड् बी इन् शूर्पं नपुंसकलिङ्ग पासिबलि. ओके, सो इदानीं प्रश्नाः सन्ति चेत् हस्तम् उन्नयन्तु. सर्वेषां हस्तम् अवतारयामि. प्लीज् रेज् युवर् हेण्ड्स् इफ् यु हाव् अ क्वश्चन्. Okay, just one moment. Kishore Mahodaya, Prashna Hastira.
Yeah. Bonomala Jasya Sa Bonomali Kidrisha.
Vanamali is Vanamala Asya Asti Iti Vanamali. That is a Tadhita compound. Okay.
Oh,
so vanasya okay. Mala vanamala.
Okay.
Vanamala asya asti iti vanamali iti tadhita pratyayah.
Oh, samasa bahuvrihi samasa nasti.
Na. Yadi bahuvrihi samasah na tatra. It is a tadhita pratyaya. Wherever you get e that vanamali. Similarly somebody asks for avinashi. So na vinashah avinashah avinashah asya asti iti avinashi. इति तद्धित प्रत्ययः भवति. तत्
धन्यवादः.
शूर्पशब्दः पुल्लिङ्गे नपुंसकलिङ्गे उभयत्रापि अस्ति इति स्यात् तदेव. सो शूर्पः शूर्पम् उभयं युज्यते. ओके, सो विल् स्टाप् हियर्. यस्, चन्द्रशेखरन् महोदय.
कार्यकुशलः अत्र सप्तम्यं तु बहुभिः व्यधिकरण किं बहुभिः भवितुमर्हति वा? कार्ये कुशलः कुशलं
यस्य सः न अपेक्षितं किल. कुशलः इत्युक्ते ही हू इस् स्किल्ड् इत्येव अर्थः. अतः कार्ये कुशलः उत्तरपदार्थस्यैव प्राधान्यं. सप्तमी तत्पुरुषः. He who is skilled in work. तत्र कुशल इत्यस्य एव कः गच्छति? कुशलः गच्छति. यदि कार्यकुशलः गच्छति इति क्रियापदस्य योजनं कुर्मः, कुशलः गच्छति इत्येव. अतः उत्तरपदार्थप्राधान्यं तत्पुरुषसमासः. अन्यपदार्थः नास्ति अत्र. मे बी यू केन् से कार्ये कौशलं यस्य सः कार्यकौशलः. दट् कुड् बी अ पासिबल् लिस्टिङ्ग् फार् सप्तमी बहुव्रीहि, व्यधिकरण बहुव्रीहि. बट् सच् बहुव्रीहि इस् नाट् इन् यूस्. फार् एक्साम्पल् कार्ये कौशलं, सो स्किल् इन् वर्क् यस्य अस्ति सः कार्यकौशलः इति प्रयोगः नास्ति. द व्यधिकरण बहुव्रीहि इस् पाप्युलर्लि यूस्ड् ओन्ली इन् दिस् काण्टेक्स्ट्. इट् इस् नाट् अ common samasa. So we use vyadhikarana for something in something. As I said, tatra avayava vachake eva tasya prasiddhih asti. Ataha etadrisheshu arthaha yujyate kintu saha samasaha na bhavati. Okay, astu tarhi shvaha pashyamaha sardha saptavadane. Dhanyavadaha.